एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अस्यैव आषाढमासस्य अष्टाविंशे दिवसे शुक्रवासरे प्रतिनिधिसभायाम् विश्वासस्य मतम् गृहीता। प्रधानमन्त्रिणा प्रचण्डेन संघीय संसदः महासचिवाय ह्य पत्रम् सम्प्रेष्य अष्टाविंशे दिवसे विश्वासस्य मतस्य ग्रहणाय प्रतिनिधिसभायाः समक्षम् प्रस्तावस्य प्रस्तुत्यै व्यवस्थाम् कर्तुम् अनुरुद्धमस्ति। प्रधानमन्त्रिणा प्रचण्डेन 79th विक्रमवर्षस्य पौषमासस्य एकादशे दिवसे आत्मनः नेतृत्वस्य सर्वकारे सहभागिषु दलेषु एकेन दलेन स्वस्य समर्थनम् प्रत्यावृतम् अस्ति। यतः नेपालस्य संविधानस्य अनुसारेण 30 दिनानाम् अभ्यन्तरे प्रधानमन्त्रिणा विश्वासस्य मतस्य ग्रहणस्य कृते प्रस्तावः प्रस्तोतव्यः अस्ति इति प्रावधानस्य सत्वात् अस्यैव आषाढमासस्य अष्टाविंशे दिवसे प्रतिनिधिसभा उपवेशस्य कार्यसूच्याम् अस्य प्रस्तावस्य समावेशनस्य व्यवस्थाम् विधातुम् संघीय संसद सचिवालयाय प्रधानमन्त्रिणा प्रेषिते पत्रे अनुरुद्धमस्ति। नेकपा एमाले दलेन संघीय संसद सचिवालयाय प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वस्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तितमस्ति इति संसूचितम् वर्तते। एमाले दलस्य प्रमुख सचेतक पदीयो महेश कुमार वर्तौला ह्य सचिवालयस्य महासचिवाय पत्रम् सम्प्रेष्य समर्थनम् प्रत्यावर्तितमस्ति इति समसूचयत्। अशोक कुमार राई नेतृत्वस्य जनता समाजवादी दलेन सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावृतम् वर्तते। दलस्य ह्य उपविष्टस्य उपवेशस्य निर्णयस्य अनुसारेण प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वस्य वर्तमान सर्वकाराय प्रदत्तम् समर्थनम् ह्यस्तनात् दिवसादेव क्रियान्वयनत्वेन प्रत्यावृतम् अस्ति इति दलाध्यक्षेण संसदीय दलस्य नेत्रा च प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। जसपा दलेन एतत्पूर्वम् संघीय संसद सचिवालयाय पत्रम् सम्प्रेष्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तितमस्ति संसूचितम् अस्ति। दलस्य महासचिवः मोहम्मद इस्तियाक राई असूचयत्। दलेन प्रदत्तस्य समर्थनस्य प्रत्यावर्तनस्य निर्णयेन सहैव दलस्य पक्षतः सर्वकारे सहभागिभिः स्वास्थ्य जनसंख्या मन्त्रिणा प्रदीप कुमार यादवेन, वन वातावरण मन्त्रिणा नवल किशोर शाह सुडी इत्यनेन, स्वास्थ्य जनसंख्या राज्य मन्त्रिणा हसीना खान इत्यनया च प्रधानमन्त्री त्रिणय प्रचण्डाय त्यागपत्रम् प्रदत्तम् वर्तते। मधेश प्रदेशस्य मुख्यमन्त्री सतीश कुमार सिम्मा अद्य प्रदेशसभायाम् विश्वासस्य मतम् गृह्णाति। मुख्यमन्त्रिणः सिम्मस्य अद्य प्रातः 11 उपविश्यमाने प्रदेशसभायाः उपवेशे विश्वासस्य मतस्य ग्रहणस्य कार्यक्रमस्थिति प्रदेशसभा सचिवालयेन ज्ञापितम् वर्तते। अत्रान्तरे मुख्यमन्त्रिणः सिंहस्य नेतृत्वस्य सर्वकाराय नेकपा एमाले दलेन विश्वासस्य मतम् प्रदीयते। एमाले दलस्य मधेस प्रदेशसभायाः प्रमुख सचेतक पदीयः हरिनारायण महतो जनमत दलस्य नेतृत्वस्य सर्वकाराय विश्वासस्य मतम् प्रदीयते इति अज्ञापयत्। मधेस प्रदेशे जनमत दलस्य नेतृत्वस्य सर्वकारे नेकपा एमाले, नेकपा माओवादी केन्द्र, एकीकृत समाजवादी, नेपाल संघीय समाजवादी, नागरिकोन्मुक्ति दलानि सहभागिनी सन्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते राजनीतिक परिस्थितौ विचलनम् इव दृष्टम् सदपि सर्वकारेण विपद व्यवस्थापनम् उच्च प्राथमिकतायम् संस्थाप्य कार्यम् विधातव्यम्। सिम्मा प्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविष्टे वर्षायामज संकट न्यूनीकरणेन संकट प्रतिकार्येण च सहसम्बद्धे उच्चस्तरीय उपवेशे प्रधानमन्त्री प्रचण्डः नेपालः प्राकृतिक विपद उच्च संकटापन्नः देशोऽस्तीत्यतः त्रयाणामेव सुरक्षा निकायानाम् समन्वयेन प्रयासेन च विपद व्यवस्थापनस्य कार्यम् व्यवस्थितम् विधातुम् निरदिशत। विमर्शने नेपाली सेनया गृह मन्त्रालयस्य पक्षतः विपद व्यवस्थापनस्य विषय विहितस्य पूर्व कार्यस्य विषयः विज्ञापितः आसीत्। नेकपा एकीकृत समाजवादी दलस्य दशम राष्ट्रिय महाधिवेशनेन 93 सदस्यात्मिका केन्द्रीय समिति संगठिता वर्तते। महाधिवेशनस्य अध्यक्ष मण्डलस्य अध्यक्ष झलनाथ खनाल, माधव कुमार नेपालस्य अध्यक्षतायां सम्मानित नेत्रा झलनाथ खनालेन, महासचिवेन घनश्याम भूषालेन च सहिता 93 सदस्यात्मिका केन्द्रीय समिति उद्घोषयत। अध्यक्ष मण्डलस्य सदस्य राजेन्द्र पाण्डे 10 दिनानाम् अभ्यन्तरे अवशिष्टानाम् केन्द्रीय सदस्यानाम् नामानि सार्वजनिक करिष्यति इति असूचयत। ह्य काष्ठमण्डपे सम्पन्नम् एकीकृत समाजवादी दलस्य महाधिवेशनम् सम्बोधयन् दलाध्यक्षः माधव कुमार नेपालः समाजवादी समितिः क्रियाशीला विधातव्या इति अवोचत। राष्ट्रिय सभाया ह्यस्तनोपवेशेन एतत् विक्रम वर्षीयं विनियोजन विधेयकं पारितकृतं वर्तते। उपवेशे प्रतिनिधिसभातः ससन्देशं प्राप्तानि एतत् विक्रम वर्षीयाणि आर्थिक विधेयकं, राष्ट्र ऋणोत्थापन विधेयकं, सीमा प्रवेश शुल्क विधेयकं च सर्वसम्मत्या पारितकृतानि सन्ति। अर्थमन्त्रिणा वर्षमान पुनि इत्यनेन इमानि विधेयकानि प्रस्तुतानि आसन्। तत्पूर्वम् एतत् विक्रम वर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतम् मन्त्रालयगत विमर्शने सांसदानां प्रश्नान् उत्तरयन् संचार सूचना प्रविधि मन्त्री रेखा शर्मा काष्ठमण्डपस्य गोठाटार स्थाने ज्येष्ठ नागरिकाश्रमम् निर्मातुम् वित्तं विनियुक्तम् अस्ति। आराष्ट्रम् अष्टाचत्वारिंशति स्थानेषु ज्येष्ठ नागरिक केन्द्राणि सञ्चाल्यमानानि सन्तीति असूचयत। उपवेशे प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा, भूमि व्यवस्था सहकारी विपन्नता निवारण महिला बाल बालिका ज्येष्ठ नागरिक विधि न्याय संसदीय विषय मन्त्रालयैः राष्ट्रपति कार्यालयेन, उपराष्ट्रपति कार्यालयेन, प्रधानमन्त्री मन्त्री परिषद कार्यालयेन, राष्ट्रिय योजनायोगेन च सम्बद्धेषु विषयेषु उत्थापिताः प्रश्नाः समाहिताः आसन्। तथैव अर्थमन्त्रिणा वर्षमान पुन इत्यनेन प्रधानमन्त्रिणः प्रचण्डस्य पक्षता उद्योग वाणिज्यापूर्ति कृषि पशुपक्षी विकास भौतिक पूर्वाधार यातायात पेयजल मन्त्रालयैः सम्बद्धेषु विषयेषु सांसदैः उत्थापिताः प्रश्नाः समाहिताः अवर्तन्त। उपवेशे गृह मन्त्रालयस्य पक्षतः श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणा डोलप्रसाद अरियालेन अस्मिन् वर्षे वर्षायामज विपदः 28 जना मृताः, वज्रपातेन 32 जनपदाः प्रभाविताः सन्तीति अज्ञापयत। राष्ट्रिय सभायाः अपरोपवेश स्व आषाढस्य 23 दिवसे रविवासरे पूर्वाह्नस्य सपादैकवादने वस्ता। सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते धान्यस्य न्यूनतमं समर्थनं मूल्यं निर्धारितं वर्तते इति समाचारः।